इत्यन्धकारातिसुतस्य दैत्य वधाय युद्धोत्सुकमानसस्य सर्वं शुचिस्मेरमुखारविन्दम् गीर्वाणवृन्दम् वचसाननन्द
इति दैत्यवधाय दैत्यवधम् कर्तुम् युद्धे उत्सुकमानसस्य उत्कण्ठितचेतसः अन्धकारातिसुतस्य शिवपुत्रस्य कुमारस्य सम्बन्धिना इति पूर्वोक्तेन वचसा सर्वम् गीर्वाणवृन्दम् देवसमूहः शुचि शुद्धम् स्मेरम् समन्दहासम् मुखारविन्दम् मुखकमलम् यस्य तथाभूतम् सदा ननन्द जहर्ष
सान्द्रप्रमोदात् पुलकोपगूढः सर्वाङ्गसम्फुल्लसहस्रनेत्रः तस्योत्तरीयेण निजाम्बरेण निरुञ्छनम् चारुचकारशक्रः
सान्द्रेति सान्द्रप्रमोदात् धनानन्दात् हेतोः पुलकैः रोमाञ्चैः उपगूढः आश्लिष्टः पुलकः कृमिभेदे अश्मभेदे च मणिदोषके रोमाञ्चे हरिताले गजात्तपिण्डे च गन्धके इति मेदिनी तथा सर्वेष्वङ्गेषु सम्फुल्लानि सहस्रनेत्राणि यस्य यतः सहस्राक्षः तथाभूतः शक्रः इन्द्रः तस्य कुमारस्य उत्तरीयेण संव्यानेन संव्यानमुत्तरीयम् स्यात् इत्यमरः यथा निजाम्बरेण निरुञ्छनम् परिवर्तनम् चारु चकार भ्रातृभावाय अन्योन्यवस्त्रग्रहणम् चक्रतुः इत्यर्थः तदुक्तम् मेदिन्याम् निरुञ्छनम् बन्धुतायै वाससः परिवर्तनम् इति लोकेऽपि भ्रातृतायै परस्परस्य उष्णिग्बन्धनव्यवहारः तद्वत् अत्रापीति अनुशासने सामान्यतः वासोग्रहणेन प्रकृते उत्तरीयग्रहणम् सङ्गच्छते लोकव्यवहारस्तु सम्प्रदायसिद्धः उष्णिः विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूलमिति मन्तव्यम्
घनप्रमोदाश्रुतरङ्गिताक्षैः मुखैश्चतुर्भिः प्रचुरप्रसादैः अथो अचुम्बद्विधिरादिवृद्धः षडाननम् षट्सुशिरः सुचित्रम्
घनेति अथो अनन्तरम् आद्ययोः हरिहरयोः वृद्धः महान् विधिः ब्रह्मा घनः सान्द्रः घनम् स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः नामुस्तादौ घनाद्येषु विस्तारे लोहमुद्गरे त्रिषु सान्द्रे च दृष्टार्थे इति मेदिनी यः प्रमोदः हर्षः तेन निमित्तेन यदश्रु नेत्रपयः तेन तरङ्गितानि सञ्जाततरङ्गाणि तारकादिभ्य इतच् अक्षीणि नेत्राणि येषाम् तैः हर्षवशात् उद्गताश्रुभिरित्यर्थः तथा प्रचुरप्रसादैः अधिकप्रसन्नतायुक्तैः चतुर्भिः मुखैः षट्सु शिरःसु मध्ये षडाननम् कुमारम् चुचुम्बे पस्पर्श इति चित्रम् विस्मयः चतुर्भिः मुखैः षण्णाम् मुखानाम् यौगपद्येन स्पर्शासम्भवात्। परिहारस्तु प्रत्येकम् षट्सु चतुर्भिः चुम्बनेन सन्धेयः।
तम् साधु साध्वित्यभितः प्रशस्य मुदा कुमारम् त्रिपुरासुरारेः आनन्दयन् वीरजयेति वाचा गन्धर्वविद्याधर सिद्धसङ्घाः।
तमिति गन्धर्वाः देवगायकाः विद्याधराः सिद्धाश्च देवविशेषाः येषाम् सङ्घाः समुदायाः कर्तारः तम् त्रिपुरासुरस्य अरेः शिवस्य कुमारम् पुत्रम् मुदा प्रीत्या निमित्तेन साधु साधुविति अभितः सम्मुखत्वेन प्रशस्य स्तुत्वा हे वीर त्वम् जय शत्रोः सकाशात् जयम् प्राप्नुहि इत्येवम् भूतया वाचा आनन्दयन् आनन्दितम् अकुर्वन्।
दिव्यर्षयः शत्रुविजेष्यमाणम् तमभ्यनन्दन् किल नारदाद्याः निरुञ्छनम् चक्रुरथोत्तरीयैः चामीकरीयैर्निजवल्कलैश्च।
दिव्यर्षय इति नारदाद्याः नारदप्रमुखाः दिव्याः दिविभवाः ऋषयः। द्युप्रागपागुदक् इति यत् शत्रुम् तारकम् विजेष्यमाणम् जेष्यन्तम् तम् कुमारम् अभ्यनन्दन् तुष्टुवुः किल। अथ अनन्तरम् चामीकरीयैः सौवर्णैः उत्तरीयैः वस्त्रैः तथा निजैः वल्कलैश्च निरुञ्छनम् बन्धुतायै वासःपरिवर्तनम् चक्रुः। निरुञ्छनम् पूर्वमेव निर्णीतम्।
ततः सुरा शक्तिधरस्य तस्य अवष्टम् भतः साध्वसमुत्सृजन्तः उत्सेहिरे स्वर्गमनन्तशक्तेः गन्तुम् वनम् यूथपतेरिवेभाः।
तत इति ततः अनन्तरम् शक्तिः आयुधविशेषः ताम् धरतीति तथोक्तस्य तस्य कुमारस्य शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम् इति मेदिनी। अवस्तम्भतः आश्रयतः अवस्तम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि इति मेदिनी। अत्र स्तम्भशब्देन आश्रयः लक्षितः। स्तम्भस्य आश्रयमिति तत्त्वात् साध्वसम् भयम् भीतिर्भीः साध्वसम् भयम् इत्यमरः। उत्सृजन्तः त्यजन्तः सुराः देवाः अनन्तशक्तेः अपारशौर्यस्य यूथपतेः गजराजस्य अवस्तम्भतः इभाः गजाः वनमिव। स्वर्गम् गन्तुम् प्रवेष्टुम् उत्सेहिरे उत्साहम् चक्रुः। अनन्तशक्तेरिति विशेषणम् कुमारेऽपि योजनीयम्।
अथाभिपृष्ठम् गिरिजासुतस्य पुरन्दरारातिवधम् चिकीर्षोः
सुरानिरीयुस्त्रिपुरम् दिधक्षोः इव स्मरारेः प्रमथाः समन्तात्।
अथेति अथ उत्साहानन्तरम् सुराः पुरन्दरस्य इन्द्रस्य अरातेः तारकस्य वधं मृत्युं चिकीर्षोः कर्तुमिच्छोः गिरिजासुतस्य कुमारस्य अभिपृष्ठं पृष्ठसम्मुखं त्रिपुरं दैत्यं दिधक्षोः दग्धुमिच्छोः दहभस्मीकरणे इति धातोः इच्छार्थे सनि सन्यङोः इति द्वित्वे सनाशंसभिक्ष उः इत्युप्रत्ययः स्मरारेः शिवस्य अभिपृष्ठं प्रमथा इव स्थिताः समन्तात् निरीयुः निर्जग्मुः अन्तर्विविशुरित्यर्थः
सुराङ्गणानाम् जलकेलिभाजाम् प्रक्षालितैः सन्ततमङ्गरागैः प्रपेदिरे पिञ्जरवारिपूराम् स्वर्गौकसस्वर्गधुनीम् पुरस्तात्
सुराङ्गणानामिति स्वर्गौकसः देवाः पुरस्तात् अग्रे जलकेलिभाजाम् जलक्रीडासक्तानाम् सुराङ्गणानाम् अप्सरसाम् सन्ततम् निरन्तरम् प्रक्षालितैः अङ्गरागैः कुङ्कुमादिरचितैः पिञ्जरवारिपूराम् पीतजलप्रवाहाम् स्वर्गधुनीम् मन्दाकिनीम् प्रपेदिरे प्रापुः सुराङ्गणानामिति कुमति च इति णत्वम्
दिग्दन्तिनाम् वारिविहारभाजाम् कराहतैर्भीमतरैस्तरङ्गैः आप्लावयन्तीम् मुहुरालवाल श्रेणिम् तरूणाम् निजतीरजानाम्
दिग्दन्तीति किम् भूताम् स्वर्गधुनीम् वारिणि विहारभाजाम् क्रीडताम् दिग्दन्तिनाम् ऐरावतादीनाम् करैः शुण्डादण्डैः करो वर्षोपलेपाणौ रश्मौ प्रत्ययशुण्डयोः इति मेदिनी आहतैः ताडितैः अत एव भीमतरैः अतिशयभयानकैः तरङ्गैः कल्लोलैः कृत्वा निजतीरजानाम् आत्मीयतटोत्पन्नानाम् तरूणाम् वृक्षाणाम् सम्बन्धिनीम् आलवालानाम् मूलस्थलीनाम् श्रेणिम् श्रेणिस्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ इति मेदिनी मुहुः वारम् वारम् मुहुः पुनः पुनश्शश्वत् इत्यमरः आप्लावयन्तीम् सेचयन्तीम्
लीलारसाभिः सुरकन्यकाभिः हिरण्मयीभिः सिकताभिरुच्चैः माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीराम् वरवेदिकाभिः
लीलेति पुनः किम् भूताम् लीलायाम् क्रीडायाम् रसः प्रीतिः यासाम् ताभिः सुराणाम् कन्यकाभिः पुत्रीभिः तथा हिरण्मयीभिः सौवर्णीभिः सिकताभिः वालुकाभिः तथा माणिक्यगर्भाभिः मणिखचितमध्याभिः तथा उपाहिताभिः निर्मिताभिः न तु अकृत्रिमाभिः तथा उच्चैः महतीभिः वराः श्रेयस्यः याः वेदिकाः ताभिश्च प्रकीर्णतीराम् व्याप्तसैकताम्
सौरभ्यलुब्धभ्रमरोपगीतैः हिरण्यहंसावलिकेलिलोलैः चामीकरीयैः कमलैर्विनिद्रैः च्युतैः परागैः परिपिङ्गतोयाम्
सौरभ्येति पुनः किम् भूताम् सौरभ्ये सौगन्ध्ये लुब्धाः लुम्पटाः ये भ्रमराः द्विरेफाः तैः उपगीतैः मुखरितैरित्यर्थः हिरण्यस्य सुवर्णस्य ये हंसाः मरालाः तेषाम् आवल्यः पङ्क्तयः तासाम् केलिः क्रीडा तया निमित्तेन लोलैः चञ्चलैः चामीकरीयैः सौवर्णैः विनिद्रैः विदलितैः कमलैः उपलक्षिताम् अत एव च्युतैः कमलेभ्यः भ्रष्टैः परागैः सुमनोरजोभिः परागः सुमनोरजः इत्यमरः परिपिङ्गम् परितः पीतम् तोयम् जलम् यस्याः तथोक्ताम्
कुतूहलाद्द्रष्टुमुपागताभिः तीरस्थिताभिः सुरसुन्दरीभिः अभ्यूर्मिराजिप्रतिबिम्बिताभिः मुदम् दिशन्तीम् व्रजताम् जनानाम्
कुतूहलादिति द्रष्टुम् कुतूहलात् कौतुकात् आनन्दादिति यावत् उपागताभिः आगताभिः अत एव तीरस्थिताभिः अत एव अभ्यूर्मिराजि ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिः देवाङ्गनाभिः निमित्तेन व्रजताम् गच्छताम् अपि जनानाम् मुदम् दिशन्तीम् ददतीम् एकासामपि अप्सरसाम् प्रतिबिम्बवशात् अनेकधा दृश्यमानत्वात् युक्ता प्रीतिजनकता इति भावः
ननन्द सद्यश्चिरकालदृष्टाम् विलोक्य शक्रः सुरदीर्घिकाम् ताम् अदर्शयत्सादरमद्रिपुत्री महेशपुत्राय ततः पुरोगः
ननन्देति शक्रः इन्द्रः चिरकालेन बहुकालेन दृष्टाम् ताम् सुरदीर्घिकाम् मन्दाकिनीम् विलोक्य सद्यः झटिति ननन्द जहर्ष अतिरमणीयम् वस्तु चिरकालदृष्टम् सत् बहुप्रीतिजनकम् भवतीति भावः ततः अनन्तरम् अद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरम् यथा तथा पुरोगसन् अदर्शयत्
स कार्तिकेयः पुरतः परीतः सुरैः समस्तैः सुरनिम्नगाम् ताम् अपूर्वदृष्टाम् अवलोकमानः स विस्मयस्मेरविलोचनोऽभूत्
स इति समस्तैः सुरैः परीतः व्याप्तः सः कार्तिकेयः कुमारः अपूर्वदृष्टाम् अधुनैव दृष्टामित्यर्थः ताम् सुरनिम्नगाम् पुरतः अग्रे अवलोकमानस्सन् सविस्मयः साश्चर्यः स्मेरविलोचनः समन्दहासनेत्रश्च अभूत्
उपेत्यताम् तत्र किरीटकोटि ಪತ್ನ್ಯಸ್ತಾಂಜಲಿರ್ಭಕ್ತಿಪರಃ ಕುಮಾರಃ ಗೀರ್ವಾಣವೃಂದೈಃ ಪ್ರಣುತಾಂ ಪ್ರಣುತ್ಯ ನಮ್ರೇಣ ಮೂರ್ಧ್ನಾ ಮುದಿತೋ ವವಂದೇ.
ಉಪೇತ್ಯೇತಿ ಭಕ್ತಿಪರಃ ಭಕ್ತಿಪ್ರವಣಃ ಕುಮಾರಃ ಕಾರ್ತಿಕೇಯಃ ಗೀರ್ವಾಣವೃಂದೈಃ ದೇವಸಮೂಹೈಃ ಪ್ರಣುತಾಂ ಪ್ರಕರ್ಷೇಣ ಸ್ತುತಾಂ. ನು ಸ್ತುತೌ ಇತಿ ಧಾತೋಃ ಕರ್ಮಣಿ ತಃ ತಾಂ ಮಂದಾಕಿನೀಂ ತತ್ರ ಉಪೇತ್ಯ ತತ್ಸಮೀಪಂ ಗತ್ವಾ ಇತ್ಯರ್ಥಃ. ಕಿರೀಟಕೋಟೌ ಮುಕುಟಾಗ್ರೇ ಕೋಟಿಸ್ತ್ರೀ ಧನುಷೋಗ್ರೇ ಸ್ತ್ರೀ ಇತಿ ಮೇದಿನೀ. ಅತ್ರ ಅಗ್ರಶಬ್ದಸ್ಯ ಧನುಶಬ್ದೋಪಲಕ್ಷಿತತಯಾ ಸರ್ವೇಷಾಂ ಅಗ್ರವಾಚಕತ್ವಂ ಬೋಧ್ಯಂ. ನ್ಯಸ್ತಃ ಅಂಜಲಿಃ ಯೇನ ತಥಾಭೂತಃ ಸನ್ ಪ್ರಣುತ್ಯ ಈಡಯಿತ್ವಾ ಮುದಿತಃ ಮುಮುದೇ. ಇದಂ ಕೃದಂತರೂಪಂ ಕ್ರಿಯಾಪದಂ. ತಥಾ ನಮ್ರೇಣ ಮೂರ್ಧ್ನಾ ಶಿರಸಾ ವವಂದೇ ನಮಶ್ಚಕ್ರೇ.
ಪ್ರಣರ್ತಿತಸ್ಮೇರಸರೋಜರಾಜಿಃ ಪುರಃ ಪರೀರಂಭ ಮಿಲನ್ ಮಹೋರ್ಮಿಃ ಕಪೋಲ ಪಾಲಿಶ್ರಮವಾರಿ ಹಾರಿ ಭೇಜೇ ಗುಹಂ ತಂ ಸರಿತಃ ಸಮೀರಃ.
ಪ್ರಣರ್ತಿತೇತಿ ಪ್ರಣರ್ತಿತಾ ಕಂಪಿತಾ ಸ್ಮೇರಸರೋಜಾನಾಂ ವಿಕಸಿತಕಮಲಾನಾಂ ರಾಜಿಃ ಮಾಲಾ ಏನ ಅನೇನ ಸೌಗಂಧ್ಯೋಕ್ತಿಃ ತಥಾ ಪರಿರಂಭೇಣ ಆಶ್ಲೇಷೇಣ ಮಿಲಂತಃ ಆತ್ಮನಿ ಮಿಶ್ರೀಭವಂತಃ ಮಹೋರ್ಮಯಃ ಯಸ್ಯ ಅನೇನ ಶೈತ್ಯೋಕ್ತಿಃ. ಕಪೋಲಪಾಲ್ಯಾಃ ಕಪೋಲರೂಪಲತಾಗ್ರಸ್ಯೇತ್ಯರ್ಥಃ. ಪಾಲಿಃ ಕರ್ಣೇ ಲತಾಗ್ರೇಸ್ರೌ ಇತಿ ವಿಶ್ವಃ ಶ್ರಮೇಣ ಯದ್ವಾರಿ ಸ್ವೇದಃ ತಸ್ಯ ಹಾರಿ ಅನೇನ ಮಾಂದ್ಯೋಕ್ತಿಃ. ಅನ್ಯಥಾ ಶ್ರಮಹೃತೇಃ ಅಸಂಭವಃ. ಏವಂಭೂತಃ ಸರಿತಃ ಮಂದಾಕಿನ್ಯಾಃ ಸಮೀರಃ ಪವನಃ ಪುರಃ ಅಗ್ರೇ ಸ್ಥಿತಂ ತಂ ಗುಹಂ ಸ್ವಾಮಿ ಕಾರ್ತಿಕೇಯಂ ಯದ್ವಾ ಪುರೋಗ್ರೇ ಭೇಜೇ ಸಿಷೇವೇ.
ತತೋ ವ್ರಜನ್ ನಂದನ ನಾಮಧೇಯಂ ಲೀಲಾವನಂ ಜಂಭಜಿತಃ ಪುರಸ್ತಾತ್ ವಿಭಿನ್ನ ಭಗ್ನೋದ್ಧೃತಶಾಲ ಸಂಘಂ ಪ್ರೇಕ್ಷಾಂಚಕಾರ ಸ್ಮರಶತ್ರುಸೂನುಃ.
ತತ ಇತಿ ತತಃ ಗಂಗಾವಲೋಕನಾನಂತರಂ ವ್ರಜನ್ ಚಲನ್ ಸ್ಮರಶತ್ರುಸೂನುಃ ಕುಮಾರಃ ಪುರಸ್ತಾತ್ ಅಗ್ರೇ ವಿಭಿನ್ನಃ ವಿದಾರಿತಃ ಬಾಣೈಃ ಶತರಂಧ್ರೀಕೃತ ಇತಿ ತಾತ್ಪರ್ಯಾರ್ಥಃ. ತಥಾ ಭಗ್ನಃ ಆಮರ್ದಿತಃ ಮೂಲಂ ವಿನಾ ಉಪರ್ಯೇವ ಶತಶಕಲೀಕೃತಃ ಉದ್ಧೃತಃ ಉತ್ಪಾಟಿತಶ್ಚ ಶಾಲಸಂಘಃ ಯಸ್ಯ ತತ್. ಶಾಲೋ ಹಾಲೇ ಮತ್ಸ್ಯಭೇದೇ ಶಾಲೌಕಸ್ತತ್ಪ್ರಭೇದಯೋಃ ಶಾಲದೃಸ್ಕಂದಶಾಖಾಯಾಂ ಶಾಲೇತಿ ಪರಿಕೀರ್ತಿತಾ ಇತಿ ಮೇದಿನೀ. ನಂದನ ನಾಮಧೇಯಂ ನಂದನ ಸಂಜ್ಞಕಂ ನಂದನಂ ವನಂ ಇತ್ಯಮರಃ ಜಂಭಜಿತಃ ಇಂದ್ರಸ್ಯ ಲೀಲಾವನಂ ಉಪವನಂ ಪ್ರೇಕ್ಷಾಂಚಕಾರ ದದರ್ಶ ಇಜಾದೇಶ್ಚ ಇತಿ ಆಂ.